एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। राष्ट्रपतिः रामचन्द्र पौडेलः वर्षाणाम् सहकालस्य च देवतायाः रक्तमच्छेन्द्रनाथस्य कञ्चुक प्रदर्शनयात्राम् अवालोकयत्। राष्ट्रपतिः पौडेलः ललितपुरस्य जावलाखेलस्थाने ह्य अपराह्ने आयोजितायाम् कञ्चुक प्रदर्शनयात्रायाम् सम्मिल्य यात्रामिमाम् अवालोकयत्। मच्छेन्द्रनाथस्य रथस्य लग्नखेलाद् जावलाखेले प्रापणस्य चतुर्थे दिवसे कञ्चुक प्रदर्शनात्मिकायाः परम्परायाः अनुसारेण राष्ट्रपतेः पौडेल उपस्थितौ ललितपुरस्य गुठी संस्थानस्य कर्मचारी ह कञ्चुकम् प्रादर्शयत। तदवसरे राष्ट्रपतिः पौडेलः रक्तमच्छेन्द्रनाथस्य दर्शनेन सह प्रसादम् अगृह्णात्, जीवितदेव्याः कुमार्याः दर्शनम् च व्यददात्। कञ्चुकयात्रायाः अवलोकनाय उपराष्ट्रपतिः रामसाहेब प्रसाद यादवः, प्रधानमन्त्री पुष्पकमल दाहालः प्रचण्डः, सभामुख देवराज घिमिरे, उपप्रधान गृहमन्त्री नारायणकाली श्रेष्ठः, मन्त्रिणश्च सहभागिनः आसन्। उपप्रधान गृहमन्त्री नारायणकाली श्रेष्ठ सर्वकारः कृत्रिम भूटान देशीय शरणार्थी प्रकरणम् निष्कर्षम् प्राप्य एव परित्यक्षतीति प्रतिबद्धताम् व्यनक्ति। मन्त्रालये ह्य एमाले दलेन सम्बद्धस्य राष्ट्रिय युवा संघस्य ज्ञापनपत्रम् गृह्णन् उपप्रधानमन्त्री श्रेष्ठ भूटान देशीय शरणार्थी प्रकरणे राजनीतिक बलात् प्रभावाच मुक्तो भूत्वा अनुसन्धातुम् नेपाल प्रहरी निर्दिष्टो स्थिति अभूचत। उपप्रधानमन्त्री श्रेष्ठः एतस्मिन् प्रकरणे कोऽपि निर्दोषो न दण्ड्यते, दोषी च उन्मुक्तिम् नाप्नोतीति समस्पष्टयत। स्वस्यैव नागरिकाणाम् अनागरिकीकरणस्य दुष्कर्मणि राज्यस्यैव निकायेषु पदासीनानाम् विशिष्ट व्यक्तिनाम् संलग्नतायाः दर्शनात् सर्वेषाम् नेपालीनाम् शिरः अवनमितम् इति प्रतिपादयन् उपप्रधानमन्त्री श्रेष्ठः भ्रष्टाचारेण अनुचितार्थिकग्रहेण च ग्रहणेन च देशो जर्जरीकृत इति तर्कयन् च अवदत्। भ्रष्टाचारस्य जालस्य अपरित्यागम यावद् राष्ट्रम् समृद्धेरे यात्राम् गन्तुम् न शक्नोति। कृत्रिम भूटान देशीय शरणार्थी प्रकरणे निष्पक्षम् अनुसन्धानम् अभियाच्य युवसंघेन उपप्रधान गृहमन्त्रिणे श्रेष्ठाय ध्यानाकर्षण पत्रमिदम् अर्पितम् वर्तते। संचार सूचना प्रविधि मन्त्री रेखा शर्मा कथयति गणतन्त्रस्य विकल्पः पश्चगमनम् भवितुम् नार्हति। एतत् विक्रमवर्षीय गणतन्त्र दिवसस्य अवसरे राष्ट्रिय समाचार समित्या आयोजिताम् हाम्रो संस्कृति हाम्रो सम्पदा इति नाम्नीम् चित्र प्रदर्शनीम् ह्य उद्घाटयन्ती मन्त्री शर्मा वर्तमान शासकीय व्यवस्थायाम् विद्यमानानाम् न्यूनता दुर्बलतानाम् सुधारम् कृत्वा मुख्योपलब्धीनाम् संस्थागतीकरणस्य विकल्पो नास्तीति अभासत। मन्त्री शर्मा गणतन्त्रस्य प्राप्तेः पूर्वम् अभिव्यक्तेः स्वतन्त्रता राजनीतिकी स्वतन्त्रता च नासीदिति अवस्थाम् स्मरन्ति अग्रजैः गणतन्त्रस्य कृते विहितः कठिन संघर्षो न विस्मर्तव्यः इति बलम् प्रादात्। सर्वकारेण एतद् विक्रमवर्षीय गणतन्त्र दिवस विगत कालात् पृथक रूपेण समीक्षया सह दिनत्रयावधि समायोज्यमानो स्थिति च असौ असूचयत्। रूकुमा पश्चिम जनपदस्य बाँफीकोट ग्रामपालिकायाः अष्टमवडा क्षेत्रवर्तिनी दुलीस्थाने ह्यो जीपयानम् दुर्घटितम् सत् पञ्चजनाः अम्रियन्त। दुर्घटनायाम् चत्वारो जनाः घटनास्थले एव, एकश्च उपचाराय चिकित्सालयम् प्रति नयनक्रमे मार्गे एव मृतः इति रूकुमा पश्चिम जनपद प्रहरी कार्यालयस्य प्रहरी निरीक्षकः विष्णु कुमार श्रेष्ठः अज्ञापयत्। घटनायाम् आहतानाम् दश जनानाम् विभिन्नेषु चिकित्सालयेषु उपचारः जायमानो वर्तते। सानीभेरी ग्रामपालिकायाः पञ्चमवडा क्षेत्रवर्तिनो हाँसुस्थानात् जनपद मुख्यालयाय प्रस्थीयमानम् जीपयानम् दुलीस्थानवर्तिन्याम् मोचे खोलिकायाम् दुर्घटितम् आसीत्। आरोहणाकारक मार्गे अनियन्त्रितम् भूत्वा जीपयानम् दुर्घटितमिति प्रहरी सम्भावनाम् दर्शयति। राष्ट्रिय सभायाः अध्यक्ष गणेश प्रसाद तिमलसिन्हा कथयति कोरोला सीमा प्रवेश बिन्दौ शीघ्रातिशीघ्रम् सीमा प्रवेश बिन्दु शुल्क कार्यालयः संस्थापनीयः। राष्ट्रिय गौरवस्य आयोजनाया रूपेण विद्यमानस्य कृष्णा गण्डकी तटीय मार्गस्य निरीक्षणाय ह्य नवलपरासी बर्दघाट सुस्ता पूर्व जनपदस्य गैंडाकोट स्थानम् प्राप्त अध्यक्ष तिमल सिन्हा चीन भारतयो योजकस्य देशस्यैव लघुतम दूरिया सीमा प्रवेश बिन्दु रूपेण स्थितस्य कृष्णा गण्डकी तटीय मार्गस्य निर्माण कार्यस्य अन्तिम चरणे प्राप्तत्वात् कोरला सीमा प्रवेश बिन्दौ शीघ्रम् सीमा प्रवेश बिन्दु शुल्क कार्यालय स्थापनीय इति बलम् प्रादात्। अध्यक्ष तिमल सिन्हा अगदत कोरला सीमा प्रवेश बिन्दु धार्मिक पर्यटकीय मार्गेण सहैव व्यापारिक मार्गोऽस्ति त्यतः सर्वकारेण विशेषेण ध्यानं देयम्। राष्ट्रिय सभाया अन्तर्गतायां राष्ट्रिय विषय सम्बद्धता समन्वय समितौ पञ्चाशदुत्तरैकोनविंशति शततम ख्रीष्टवर्षीयाया नेपाल भारत मैत्री शान्ति मैत्री संविधाया पुनरवलोकनस्य विषये विमृष्टमस्ति। समिते ह्यसीम प्रासादे उपविष्टे उपवेशे जलस्रोतो विज्ञ अधिकार दुरूपयोगानुसन्धानायोगस्य पूर्व प्रमुखायुक्तश्च सूर्यनाथ उपाध्याय अभाषत पञ्चाशदुत्तरैक विंशति शततम ख्रीष्टवर्षीये विहिताया संविधाया मूल प्रपत्रम् कुत्रापि न प्राप्तमस्ति। असौ अधुनावधि प्राप्तेषु सन्धि विषयकेषु प्रपत्रेषु कथनेषु च नेपाल भारतयोः उन्मुक्त सीम प्रवेश बिन्दोः सञ्चालनस्य विषयः कुत्रापि उल्लिखितो नास्तीति चर्चयेन अवोचत। नेपालेन सीम प्रवेश बिन्दोः उन्मुक्त रूपेण असञ्चालनस्य प्रस्ताव भारतस्य असञ्चालनस्य प्रस्ताव भारतस्य समक्षम् प्रस्तोतव्य। उपवेशे समितेः सांसदाः सन्धेः मूल प्रपत्रस्य इदानीं यावद् अप्राप्तावस्थायां सन्धौ उल्लिखितायां विषयाणाम् आधिकारिकतायाः प्रश्नम् उदभावयन्। उपवेशे समितेः सभापति दिलकुमारी रावल पार्वती नेपाल भारतयोः सन्धेर विषये परराष्ट्र मन्त्रालयेन सह अतिरिक्तं विमृश्य सर्वकारः सन्धेर विषये पुनरवलोकनाय निर्दिश्यते इति अज्ञापयत्। बागमती प्रदेश सर्वकारः आगामिनः आर्थिक वर्षस्य नीति कार्यक्रमान् परश्व ज्येष्ठस्य चतुर्दशी दिवसे प्रस्तुता। प्रदेश सभाया गतदिने उपविष्टे उपवेशे सभामुख भुवन कुमार पाठक नीति कार्यक्रमाः प्रदेश सर्वकारस्य पक्षतः प्रदेश प्रमुखेण यादवचन्द्र शर्मणा प्रस्तुष्यन्ते इति असूचयत। अत्रान्तरे बागमती प्रदेश सभायां प्रस्तुतस्य आगामिनः आर्थिक वर्षस्य विनियोजन विधेयकस्य कर प्रस्तावं विहाय सिद्धान्त प्राथमिकते आधृतं विमर्शनम् सम्पन्नं वर्तते। उपवेशे विनियोजन विधेयक विषयके विमर्शने उत्थापितान् प्रश्नान् उत्तरयन् आर्थिक विषय योजना मन्त्री बहादुर सिंह लामा अवदत् सर्वकारेण दलगत स्वार्थं विना आय व्ययके आर्थिक समृद्धिः उच्चैः प्राथमिकतायां समावेक्ष्यते। सभामुख देवराज घिमिरे नेपाली कलाम संस्कृतिम् च विश्वम् परिचाययितुम् सर्वान् अनुरुणद्धि। इन्टरनेशनल वेलफेयर एण्ड सपोर्ट फाउण्डेशन अफ अमेरिका नाम्न्या संस्थाया आयोजनायां काष्ठमण्डपे सञ्चाल्यमानाया मेरो भ्वाइस यूनिभर्स मेरो डान्स यूनिभर्स चेति मदीय विश्वस्वर नृत्य प्रतियोगिताया सहभागिनः कलाकारान् पूर्वेद्युः काष्ठमण्डपे सम्बोधयन् सभामुख घिमिरे नेपाल बहुजातीयम् बहुसांस्कृतिकम् च राष्ट्रमस्तीति हेतोः स्वस्य भाषा संस्कृति परिचयानाम् संरक्षण संवर्धनयोः कार्येषु प्रवर्तनाय विश्वस्य सर्वेषु स्थानेषु निवसतः सकलान् नेपालिनः अन्वरुणत्। गत पौषमासे विपुल मात्रायां सम्भूतस्य हिमपातस्य कारणेन अवरूद्धः हुम्ला जनपदस्य सीमकोट हिल्सा मार्गः पुनः सञ्चालितो वर्तते इति समाचाराः।